प्रजापतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन्नोतिभिः सेधसाधनम् प्रणो देवी सरस्वती वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उत इषवे नमः नमस्ते अस्तु धन्वने बाहुव्यामुदते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतयानो रुद्रमृणया जाते रुद्र शिवा तनुरघोरा पापकाशिनी तयानस्तनुभाषन्तमया गिरिशन्ताभि चाकशेः यामिषुम् गिरिशन्तहस्ते विभश्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेण वचसा त्वा गिरिशार्चा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत अद्य वोच दधि वक्ता प्रथमो दैव्याभिषक अहेकश्च सर्वा जम्भयन् सर्वा आश्चयातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्व मङ्गलः ये चेवागुम् रुद्रा अभिता दिक्षुश्रितात् सहस्रशो वैशागुम् हेण एमहे असव्योपसर्पतिने लग्ने भो विरोहितः उदैनम् गोपा अदृषण्ण दृषण्णुदहार्यः उदैनम् विश्वाभूतानि च दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वा नो हन्तेभ्यो करण्णमः प्रमुञ्चदन्वनस्त्वमुभयोरार्निर्जा याश्च देहस्त इषभः पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु ते निशेय शल्यानामुखा शिवान सुमना भव विज्जम् धनुः कपर्दिनो विशल्यो पाणवागुम् उत अनेषण्डस्येषव आभुलस्य निषङ्गतिः याते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाया नातताय धृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् तपसन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः ಸಸ್ಪಿಂಜರಾಯತ್ವಿಷೇಮತೆ ಪಥೀನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಬಭ್ಲುಷಾಯ ವಿದ್ಯಾಧಿನೇನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಹರಿಕೇಶಾಯೋಪವೀತಿನೇ ಪುಷ್ಟಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಭವಸ್ಯ ಹೇತ್ಯೈ ಜಗತಾಂ ಪತಯೇ ನಮೋ ನಮೋ ರುದ್ರಾಯ ತಥಾ ವಿನೇ ಕ್ಷೇತ್ರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಸೂತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ರೋಹಿತಾಯ ಸ್ಥಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಮಂತ್ರಿಣೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಭುವಂತಯೇ ವಾರಿವಸ್ಕೃತಾಯ ಔಷಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮ ಉಚ್ಚೈರ್ಘೋಷಾಯ ಕಂದಯತೆ ಪತ್ತೀನಾಂ ಪತಯೇ ನಮೋ ನಮ ಕೃಷ್ಣ ವೇದಾಯ ಧಾವತೆ ಸತ್ವನಾಂ ಪತಯೇ ನಮಃ ನಮಃ ಸಹಮಾನಾಯ ನಿವ್ಯಾಧಿನಾಭ್ಯಾಧಿನೀನಾಂ ಪತಯೇ ನಮೋ ನಮ ಕಕುಭಾಯ ನಿಷಂಗಿಣೇ ಸ್ತ್ರೀನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ನಿಷಂಗಿಣ ಇಷು ಧಿಮತೆ ತಸ್ಕರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ ವಂಚತೆ ಪರಿವಂಚತೆ ಸ್ತಾಯೂನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ನಿಚೇರವೇ ಪರಿಚರಾಯಾರಣ್ಯಾಣಾಂ ಪತಯೇ ನಮೋ ನಮ ಶಿಖಾವಿಭ್ಯೋ ಜಿಘಾಂಸದ್ಭ್ಯೋಮುಷ್ಣತಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಶ್ರೀಮದ್ಭ್ಯೋ ನಕ್ತಂ ಚರದ್ಭ್ಯ ಪ್ರಕೃಂತಾನಾಂ ಪತಯೇ ನಮೋ ನಮ ಉಷ್ಣೀಷಿಣೇ ಗಿರಿಚರಾಯ ಕುಲುಂಚಾನಾಂ ಪತಯೇ ನಮೋ ನಮ ಇಷು ಮಭ್ಯೋ ಧನ್ವಾವಿಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ ಆತನ್ವಾನೇಭ್ಯ ಪ್ರತಿದಧಾನೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ ಆಯಚ್ಛಭ್ಯೋ ವಿಷಜಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋಸ್ಯಭ್ಯೋ ವಿಧ್ಯಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ ಆಸೀನೇಭ್ಯ ಶಯಾನೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರದ್ಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮಸ್ತಿಷ್ಠದ್ಭ್ಯೋ ಧಾವದ್ಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ ಸಭಾಭ್ಯಃ ಸಭಾಪತಿಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ ಅಶ್ವೇಭ್ಯೋ ಅಶ್ವಪತಿಭ್ಯಶ್ಚ ಮೋ ನಮಃ ನಮಃಭ್ಯಾಧಿನೇಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ ಉಗಣಾಭ್ಯಸ್ತೃಗುಂಹತೆಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ ಗೃತ್ಸೇಭ್ಯೋ ಗೃತ್ಸಭರಿಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ ವ್ರಾತೇಭ್ಯೋ ವ್ರಾತಪದಿಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ ಗಣೇಭ್ಯೋ ಗಣಪದಿಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ ಮಹದ್ಭ್ಯಃ ಶುಲ್ಲಕೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ ರಥಿಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ ರಥೇಭ್ಯೋ ರಥಪದಿಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ ಸೇನಾಭ್ಯಃ ಸೇನಾನಿಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮಃ ಕ್ಷತ್ರುಭ್ಯಃ ಸಂಗ್ರಹೀತೃಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮಸ್ತಕ್ಷಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ ಕುಲಾಲೇಭ್ಯ ಕರ್ಮಾಲೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ ಪುಂಜಿಷ್ಟೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ ಇಷುಕೃದ್ಭ್ಯೋ ಧನ್ವಕೃದ್ಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮೋ ಮೃಗಯುಭ್ಯಶ್ವನಿಭ್ಯಶ್ಚ ಮೋ ನಮೋ ನಮ ಸ್ವಭ್ಯಶ್ವಪದಿಭ್ಯಶ್ಚ ಮೋ ನಮಃ ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಶರ್ವಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮೋ ನೀಲಗ್ರೀವಾಯ ಚ ಶಿತಿಕಂಠಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ವ್ಯುಕ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೆ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಪಿಭಿಷ್ಟಾಯ ಚ ನಮೋ ಮೀದುಷ್ಟಮಾಯ ಚೇಶುಮದೇ ಚ ನಮೋ ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुद्धियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो पञ्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूतिने च नमो भिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमः तीक्ष्णे च वेचायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः शोध्याय च सरस्याय च नमो नाद्याय च वैषन्दाय च नमः कोप्याय च वट्याय च नमो वर्षाय च वर्षाय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वासुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपथ्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय चाभिघ्नते च नमः आखिधते च प्रखिधते च नमो वक्किरिकेभ्यो देवानागुंहृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवत्के ಭೂತೇಭ್ಯಃ ದ್ರಾಭೇ ಅಂಧಚಸ್ಪದೇ ದರಿದ್ರನ್ನೀಲಲೋಹಿತಾ ಏಷಾಂ ಪುರುಷಾಣಾಮೇಷಾಂ ಪಶೂಣಾಂ ಮಾಭೇರ್ಮಾ ರೋಮೋ ಏಷಾಂ ಕಿಂಚನ ಮಮತ ಯಾತೆ ರುದ್ರ ಶಿವಾ ತನು ಶಿವಾ ವಿಶ್ವಾಹ ಭೇಷಜೇ ಶಿವಾ ರುದ್ರಸ್ಯ ಭೇಷಜೇ ದಯಾನೋ ಮೃಡ ಜೀವಸೇ ಇಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ದಿಲೇ ಕ್ಷಯದ್ವೀರಾಯ ಪ್ರಭರಾಮಹೇ ಮತಿಂ ಯಥಾ ನಶ್ಯಮಸದ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ಮೃಡಾಣೋ ರುದ್ರೋತನೋ ಮಯಸ್ಕೃತಿ ಕ್ಷಯದ್ವೀರಾಯ ನಮಸಾ ವಿಧೇಮತೇ ಯಚ್ಚಂಚಯೋಶ್ಚಮನುರಾಜಜೇ ಪಿತಾ ತದಶ್ಯಾಮ ತವ ರುದ್ರ ಪ್ರಣೀತೋ ಮಾನೋ ಮಹಾಂತಮುತ ಮಾನೋ ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷಂತಮುತ ಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವದೇ ಪಿತರಂ ಮೋದ ಮಾತರಂ ಪ್ರಿಯಾಮಾನಸ್ತನುವೋ ರುದ್ರರೀಷಃ ಮಾನಸ್ತೋಕೇತನ ಏ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಶ್ವರೀಷಃ ವೀರಾನ್ ಮಾನೋ ರುದ್ರ ಭಾವಿತೋ ಭವಿಷ್ಮಂತೋ ನಭಸಾ ವಿಧೇಮದೇ ಆರಾತ್ಯೆ ಗೋಗ್ನ ಉತ ಪೋರುಷಗ್ನೆ ಕ್ಷಯದ್ವೀರಾಯ ಸುಮ್ನಭಸ್ಮೇತೆ ಅಸ್ತೋ ರಕ್ಷಾಚನೋ ಅಧಿ ಚ ದೇವ ಬ್ರೂಹ್ಯದಾಚನ ಶರ್ಮಯಚ್ಚ ದ್ವಿಬರ್ಹಾ ಸ್ತುಹಿ ಶ್ರುತಂಗರ್ಥ ಸದೈಯುಪಾನಂ ಮೃಗಣ್ಣ ಭೀಮಮುಪಹತ್ನು ಮುಗ್ರಂ ಮೃಡಾ ಚರಿತ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂತೆ ಅಸ್ಮನ್ನಿವ ಬಂಧು ಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತಿರ್ಭಿಣಕ್ತು ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಭತಿರಗಾಯೋ ಅವಸ್ಥಿರ ಮಘವದ್ಭ್ಯಸ್ತನುಷ್ಭವೇಡ್ವ ಶ್ಲೋಕಾಯ ತನಯಾಯ ಮೃಡಯ ಮೀಡುಷ್ಟಮ ಶಿವ ತಮ ಶಿವೋರ ಸುಮನಾಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ತಿಂ ವಸಾನ ಆಚರ ಪಿನಾಕಂ ಬಿಭ್ರದಾಗಹಿ ವಿಕಿರಿದ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಕುಂ ಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಬಂಧು ತಾಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಧಾ ಬಾಹುವೋಸ್ತವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವ ಪರಾಚೀನಾ ಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾ ತೇಷಾಂ ಸಹಸ್ರಯೋಜನೇ ವಧನ್ ಪಾಣಿ ತನ್ಮಸಿ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ಣವೇಂತರಿಕ್ಷೇ ಭವಾ ಅಧಿ ನೀಲಗ್ರೀವಾಚಿತಿ ಕಂಠಾ ಶರ್ವ ಅಧ ಕ್ಷಮಾಚರಾ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾದಿವಗುಂ ರುದ್ರ ಉಪಶ್ರಿತಾಃ ಯೇ ವೃಕ್ಷೇಷು ಸಸ್ಮಿಂಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಃ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಕಾಸಕ್ಕಪರ್ದಿನಃ ಯೇ ಅನ್ಯೇಷು ವಿವಿಧ್ಯಂತಿ ಪಾತ್ರೇಷು ಪಿಬತೋ ಜನಾನ ಯೇ ಪತಾಂಪಧಿರಕ್ಷಯ ಐಲಭೃದಾಯ್ಯುಧ ಯೇ ತೀರ್ಥಾನಿ ಪ್ರಚರಂತಿ ಶಿಖಾವಂತೋ ನಿಷಂಗಿಣಃ ಯ ಏತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ಥಿರೇ ತೇಷಾಕುಂ ಸಹಸ್ರಯೋಜನೇ ವದನ್ವಾಣಿ ತನ್ಮಸಿ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಯೇ ಪೃಥಿವ್ಯಾಂ ಯೇಂತರಿಕ್ಷೇ ಯೇ ದಿವಿ ಯೇಷಾಮನ್ನಂ ವಾತೋ ವರ್ಷಮಿಷವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೀರ್ದಶ ದಕ್ಷಿಣಾ ದಶ ಪ್ರತಿ ಚೀರ್ದಶೋದಿ ಚೀರ್ದಶೋರ್ಧ್ವಾಸ್ತೇಭ್ಯೋ ನಮಸ್ತೇ ನೋ ಮೃಣಯಂತು ತೇಯಂ ದ್ವಿಷ್ಮೋ ಯಶ್ಚ ನೋ ದ್ವೇಷ್ಠಿತಂ ಭೋಜಂ ಭೇದಧಾಮಿ ತ್ರ್ಯಂಬಕಂ ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಉರ್ವಾರುಕಮಿವ ವಂದನಾತ್ ಮೃತ್ಯೋರ್ಮುಕ್ಷೇ ಯಮಾಮೃತಾತ್ యో రుద్రో అగ్నవ్యో అప్సుయ ఓషధీషు యో రుద్రో విశ్వ భువన వివేశ తస్మై రుద్రాయ నమో అస్తు. ఏతే సహస్రమయుతం పాశా మృత్యోర్మర్త్యాయ హంతవే తాజ్ఞస్య మాయయా సర్వాణమయజామహే. మృత్యవే స్వాహా మృత్యవే స్వాహా. ప్రాణానాం గ్రంథిరసి రుద్రో మావిశాంతకః తేనాన్నేనా ఆప్యాయస్వ. నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి. తముష్టు హియస్విషుసుధన్వాయో విశ్వస్య క్షయతి భేషజస్య. యక్ష్వా మహేశో మనసాయ రుద్రం నమో విర్దేవవసురంధువస్య. అయం మే హస్తో భగవానయం మే భగవత్తరః. అయం మే విశ్వభేషజోజగుం శివాభిమర్షణః. ఓం శాంతి శాంతి శాంతి. ఓం శంచమేమయశ్చ మే ప్రియం చ మేను కామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే శిరం చ మే లయశ్చ మృతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే న మిత్రం చ మే భయం చ మే సుగం చ మే శయనం చ మే సోషా చ మే సుదినం చ మే. ఓం శాంతి శాంతి శాంతి. ఓం హిరణ్యవర్ణాశుచయ పాపకాయాశుజాత కశ్యపోయాస్మింద్రః. అగ్నేయా గర్భం దదిరే విరూపాస్తాన ఆపశ్చగ్రస్యోనాభవందో. యా సాగుం రాజా వరుణో యాతి మధ్యే సత్యాన్ృతి అవపశ్యం జనానాం. మధుశ్చుతశ్చుత యో యా పావకాస్తాన ఆపశ్చగ్రస్యో నాభవందో. యాసాం దేవాది వికృణ్వంతి భక్ష్యయా అంతరిక్షే బహుధా భవంతి. యా పృథివీం వయసోందంది శుక్రాస్తాన ఆపశ్చగ్రస్యో నాభవందో. శివేన మాచక్షుషా పశ్యదాపశ్శివయా తనువోపస్పృశతత్వజం మే. సర్వాగుం అగ్నేకుం రప్సుషదో హువే భోమహివచ్చో బలమోజో నిధత్తా. పవమానస్సు వర్జనః పవిత్రేణ విచర్షణిః యప్పోతా స పునాతు మాం. పునందు మా దేవజనాః పునందు మనబోధియా పునందు విశ్వ ఆయవః. జాతవేద పవిత్రవద పవిత్రేణ పురాహి మాం. శుక్రేణ దేవదీధ్యజ అగ్నే క్రత్వా క్రతూ గుమ్రణో యత్తే పవిత్రమర్చిషే. అగ్నే విదతమంతరా బ్రహ్మతేన పునీమహే. ఉభాభ్యాం దేవ సవితః పవిత్రేణ సవేన చ ఇదం బ్రహ్మ పునీమహే. वैश्वदेवी पुनति देव्यागात् यस्यैव क्वे स्तनुवो वेदपृष्ठाः तयामदन्तः सदमाध्येषु वयग्रस्यामपतयोरयीणाम् वैश्वानरो रश्मिभिर्मा पुनातो वातप्राणेने शिरोमयो भोः द्यावा पृथिवी पयसा पयोभिः ऋतावरे यज्ञये मा पुनीता बृहद्भिः सवितस्त्रुभिः वर्षिष्ठैर्देवमन्मभिः अग्ने दक्षये पुनाहि माम् येन देवा अपुनता येनापो दिव्यम् गजः तेन दिव्येन ब्रह्मणा इदम् ब्रह्म पुनीमहे यः पावमानीरध्येते ऋषिभिः संवृतगुम् रथम् सर्वगुम् सपूतमश्नाति स्वदितम् पातरिश्वना पावमानीर्यो अध्येते ऋषिभिः संवृतगुम् रथम् तस्मै सरस्वते दुहे क्षीरगुम् सर्पिर्मधोदकम् पावमानी स्वस्य जनीः सुदुगाहिपयस्वतीः दृषिभिः संवृतो रसः ब्राह्मणेष्वमृतगुम् हितम् पावमानीर्दिशन्दुनः इमम् लोकमथो अमुम् कामान् समर्थयन्दुनः देवैर्देवै समाभृताः पावमानी स्वस्य जनीः सुदुगाहि घृतश्च्युतः ऋषिभिः संवृतो रसः ब्राह्मणेष्वमृतगुम् हितम् येन देवा पवित्रेण आत्मानम् पुनते सदा तेन सहस्रधारेण पावमान्यपुनन्दुमा प्राजापत्यम् पवित्रम् शतोद्यामगुम् हिरण्मयम् तेन ब्रह्मविदो वयम् पूतम् ब्रह्म पुनीमहे इन्द्रस्सुनीते सह मा पुनातु सोमस्वस्त्या वरुणः समीच्या यमो राजा प्रमृणाभिः पुनातु मा जातवेदामोर्जयन्त्या पुनातु भूर्भुवः सुवः तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् च गातु भेषजम् शं नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ भूमिर्भूम्नाद्यौर्वरिणान्तरिक्षम् महित्वा उपस्थेते देव्यदितेऽग्निमन्नादमन्नाध्यायादधे आयङ्गौ पृश्निरक्रमीदसनन्मातरम् पुनः पितरम् च प्रयम् शुभः त्रिगुम् सद्धामविराजति वाक्पदङ्गायसि श्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपानत्यन्तश्चरतिरोचना व्यक्षन्महिषत्सुवः यत्वा क्रुद्धः ಪರೋಪಮನ್ಯುನಾಯದವರ್ತ್ಯ ಸುಕಲ್ಪಮಗ್ನೇ ತತ್ತ ಪುನಸ್ತ್ವೋಧೀಪಯಾಮಸೇ ಯತ್ತೇ ಮನ್ಯು ಪರೋಪ್ತಸ್ಯ ಪೃಥಿವೀಮನುದಧ್ವಸೇ ಆದಿತ್ಯಾ ವಿಶ್ವೇ ತದ್ದೇವಾವಸವಶ್ಚ ಸಮಾಭರನ್ ಮನೋಜ್ಯೋತಿರ್ಜುಷತಾಮಾಜ್ಯಂ ವಿಚ್ಛಿನ್ನಂ ಯಜ್ಞಗುಂ ಸಮಿಮಂ ದಧಾತು ಬೃಹಸ್ಪತಿತ್ತನುತಾಮಿಮಂ ನೋ ವಿಶ್ವೇ ದೇವಾ ಇಹ ಮಾದಯಂತ ಮೇದಿನೀ ದೇವೀ ವಸುಂಧರಾ ಸ್ಯಾದ್ವಸುಧಾ ದೇವೀ ವಾಸವೀ ಬ್ರಹ್ಮವರ್ಚಸ ಪ್ರಿತೃಣಾಗಶ್ರೋತ್ರಂ ಚಕ್ಷುರ್ಮಣಃ ದೇವೀ ಹಿರಣ್ಯಗರ್ಭಿಣೀ ದೇವೀ ಪ್ರಸೂಪರೀ ಸದನೇ ಸತ್ಯಾಯನೇ ಸೀದಾ ಸಮುದ್ರವತೇ ಸಾವಿತ್ರೀ ಹನೋ ದೇವೀ ಮಹ್ಯಂಗೇ ಮಹೀ ಧರಣಿ ಮಹೋವ್ಯತಿಷ್ಠಾ ಶೃಂಗೇ ಶೃಂಗೇ ಯಜ್ಞೇ ಯಜ್ಞೇ ವಿಭೀಷಿಣೀ ಇಂದ್ರಪತ್ನೀ ವ್ಯಾಪಿನಿ ಸುರಸರಿದಿಹ ವಾಯುಮತಿ ಜಲಶಯನಿ ಶ್ರಿಯಂ ಧಾರಾಜ ಸತ್ಯಂಧೋಪರಿ ಮೇದಿನಿ ಶೋಪರಿ ಧತ್ತಂ ಪರಿಗಾಯ ವಿಷ್ಣು ಪತ್ನೀ ಮಹೀಂ ದೇವೀಂ ಮಾಧವೀ ಮಾಧವ ಪ್ರಿಯ ಲಕ್ಷ್ಮೀಂ ಪ್ರಿಯ ಸಖೀಂ ದೇವೀಂ ನಮಾಮ್ಯಚ್ಯುತ ವಲ್ಲಭಾ ಧನುರ್ಧರಾಯೈ ವಿದ್ಮಹೇ ಸರ್ವಸಿದ್ಧ್ಯೈ ಚ ಧೀಮಹಿ ತನ್ನೋ ಧರಾ ಪ್ರಜೋದಯಾತ್ ಮಹೀಂ ದೇವೀಂ ವಿಷ್ಣು ಪತ್ನೀ ಮಜೂರ್ಯಾಂ ಪ್ರತೀಮೇನಾಗುಂ ಹವಿಷಾಯ ಜಾಮಃ ತ್ರೇಧಾ ವಿಷ್ಣುರುಗಾಯೋ ವಿಚಕ್ರಮೇ ಮಹೀಂ ದಿವಂ ಪೃಥಿವೀಮಂತರಿಕ್ಷಂ ತಚ್ಛ್ರೋಣೈತಿ ಶ್ರವಯಿಚ್ಯಮಾನಾ ಪುಣ್ಯಗ್ಶ್ಲೋಕಂ ಯಜಮಾನಾಯ ಕೃಣ್ವತೆ ಓಂ
ಶಾಂತಿ 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 ಓಂ ಅಹಂ ರುದ್ರೇಭಿರ್ವಸುಭಿಶ್ಚರಾಮ್ಯಹಮಾ ದಿತ್ಯೈರುತ ವಿಶ್ವದೇವೈಃ ಅಹಂ ಮಿತ್ರಾವರುಣೋ ಭಾವಿವರ್ಣ್ಯಹಮಿಂದ್ರಾಗ್ನೀ ಅಹಮಶ್ವಿನೋ ಭಾ ಅಹಂ ಸೋಮಾಮಾಹನಸಂ ವಿವರ್ಣ್ಯಹಂ ತ್ವಷ್ಟಾರಮುತ ಪೂಷಣಂ ಭಗಂ ಅಹಂ ದಾದಾಮಿದ್ರವೀಣಂ ಹವಿಷ್ಮಾತೇಷು ಪ್ರಾವ್ಯೇ ಯಜಮಾನಾಯ ಸುನ್ಮತೆ ಅಹಂ ರಾಷ್ಟ್ರೀ ಸಂಗಮಾನಿ ವಸೂನಾಂ ಚಿಕಿತುಷೀ ಪ್ರಥಮಯಜ್ಞಿಯಾನಾಂ ತಾಮಾನ್ ದೇವಾವ್ಯಾದದು ಪುರುತ್ರ ಭೂರಿಸ್ತ್ರಾತ್ರಾಂಬೂರ್ಯಾ ವೇಷಯಂತಿ ಮಯಾ ಸೋ ಅನ್ನಾಮತ್ತಿಯೋ ವಿಪಶ್ಯಾತಿ ಯ ಪ್ರಾಣೀತಿಯೈ ಶೃಣೋತ್ಯುಕ್ತಂ ಅಮಂತವೋ ಮಾಂತ ಉಪಕ್ಷಿಯಂತಿ ಶ್ರುತಿಶ್ರೂಷ ಶ್ರದ್ಧಿವಂ ತೇ ವದಾಮಿ ಅಹಮೇವ ಸ್ವಯಮಿದಂ ವಾದಾಮಿ ದುಷ್ಟಂ ದೇವೀಭಿರುತಮಾನುಷೇಭಿಃ ಯಂ ಕಾಮಹೇತಂ ತಾಮುಗ್ರಂ ಕೃಣೋಮಿತಂ ಬ್ರಹ್ಮಾಣಂ ತಮೃಷಿಂ ತಂ ಸುಮೇಧಾಂ ಅಹಂ ರುದ್ರಾಯದನುರಾತಾನೋಮಿ ಬ್ರಹ್ಮದ್ವಿಶೇಷರಾ ವೇಹಂತವಾಉ ಅಹಂ ಜನಾಯ ಸಮದಂ ಕೃಣೋಮ್ಯಹಂ ದ್ಯಾವಾ ಪೃಥಿವೀ ಆವಿವೇಶ
अहम् सुवे पितरामस्य मूर्धन्ममयोनिरप्स्वा अन्तस्तामुद्रे ततो वितिष्ठे भुवनानुविश्वोन्ताम् मौल्याम् अश्वनोपस्पृशामि अहमेव वाता इव प्रवाभ्यारभावाणा भुवानानि विश्वा परो दिवा पर एना पृथिव्यैता वाति महिना संबाभूवा ॐ शान्ति शान्ति शान्तिः यो ब्रह्मा ब्रह्मण उच्चार प्राणैशिरकृत्तिवासा पिनाकी ईशानो देवः सदा आयुर्दधातु तस्मै जुहोमि हविषाघृतेन बिभ्राजमानः शरीरस्य मध्य द्रोचमानो घर्मरुचिर्य आगात् स मृत्युपाशानपनुद्य घोराणि हायुषेणु घृतमत्तु देवः ब्रह्मज्योतिर्ब्रह्मवत्नेषु गर्भम् यमाददात् पुरुरूपम् जयन्तम् सुवर्णरम्भग्रहमर्कमर्चम् तवायुषे वर्धयामो घृतेन श्रियम् लक्ष्मीमौबलामम्बिकाङ्गाम् षष्टीम् च यामिन्द्रसेने एत्युदाहुः ताम् विद्याम् ब्रह्मयोनिकुम् सरूपामिहायुषे तर्पयामो घृतेन दाक्षायण्यः सर्वयोन्यः स योन्यः सहस्रशो विश्वरूपाविरूपाः ससूनवः सपतयस्य यूथ्य आयुषेणो घृतमिदम् जुषन्ताम् दिव्यागणा बहुरूपा पुराण आयुश्छिदो न प्रमर्तन्तु वीरान् तेभ्यो जुहोमि बहुधा घृतेन मान प्रजागुम्भीरिशो मोत वीरान् एकः पुरस्तात्य इदम् बभूव यतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुंसाम् पराय स नो हविर्घृतमिहायुषे एतु देवः वसोन्रुत्राणादित्यान्मरुथोत साध्यान् ऋभून् यक्षान् गन्धर्वागश्च पितृकश्च विश्वान् भृगून् सर्पागश्चाङ्गिरसोऽथ सर्वा घृतगुम् हृत्वा स्वायुष्यामः यामशश्वत विष्णो त्वम् नो अन्तमः शर्म यच्च सहन्त्या प्रतेधारामधुश्च्युत उत्सम् दुह्रते अक्षितम् ॐ शान्ति शान्ति शान्तिः ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः समुद्रादर्णवाददि संवत्सरो अजायत अहोरात्राणि विदधद्विश्वस्य मिषतो वशे सूर्या चन्द्रमसौ धाता यथा पूर्वमकल्पयत् दिवम् च पृथिवीम् च अन्तरिक्षमधोऽशुभः य पृथिव्यागुम् रजस्वमा अन्तरिक्षे विरोधसे इमागस्तदापर्ण पुनात्वगमरुषणः पुनन्तु वसव पुनातु वरुणः पुनात्वगमरुषणः एष भूतस्य मध्ये भुवनस्य गोप्ता
एष पुण्यकृताम् लोकानेष मृत्यो हिरण्मयम् द्यावा पृथिव्यो हिरण्मयगुम् सग्रस्त्रिदगुम् सुवः सनत्सुवत्सगुम् शिशादे आर्द्रम् ज्वलति ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहम् माम् जुहोमि स्वाहा अकार्यकार्यवक्रीणीस्तेनो भ्रूणः गुरुतल्पगः वरुणोपामगमरुषणस्तस्मात् पापात् प्रमुच्यते रजो भूमिस्त्वमागुम् रोदयस्व प्रवदन्ति धीराः आक्रान् समुद्र प्रधर्मे विधर्मन् जनयन् प्रजा भुवनस्य राजा वृषा पवित्रे अधिसानो अव्ये बृहत् सोमो वावृते सुवान इन्दुः जातवेदसे सुनवामसो ममराति यतो निदः दिवेदः स न पर्षदति दुर्गाणि विश्वानावेव सिन्धुम् दुरितात्यग्निः ताम् अग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टा दुर्गाम् देवी गुम् शरणमकम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरदि दुर्गाणि विश्वा पोश्च पृथ्वी बहुलान उर्वे भवातोकायतनयाज्ञशय्योः विश्वाणि नो दुर्गः जातवेदस्सिन्धुम् ननावादुरितातिपक्षे अग्ने अत्रिवन्मनसा गृणानोऽस्माकम् बोध्यपिता तनूना पृतनाजितकुम् सहमानमुग्रमग्निकुम् हुवेम परमास्तदस्तात् स न पर्षदति दुर्गाणि विश्वाक्षामद्देवो अधिदुरितात्यग्निः प्रत्नोषि कमेढ्यो अध्वरेषु सनाच्च होत नव्यश्च सक्षे स्वाञ्चाग्ने तनुवम् विप्रयस्वास्मभ्यञ्जसौ भगमायजस्व गोभिर्जुष्टमयुजो निषिक्तम् तवेन्द्रविष्णोरनुसञ्चरेम नाकस्य पृष्टमभिधम् वसा नो वैष्णवीम् लोक इह मादयन्ताम् कात्याजनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गि प्रचोदयात् सहना भवतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः सहस्रपरमा देवी शतमूला शताङ्कुरा सर्वगुम् हरतु मे पापम् दूर्वादुःस्वप्रनाशिनि काण्डात् काण्डात् प्ररोहन्ति परुष परुष परे एवा नो दूर्वे प्रतनुसहस्रेण शतेन च या शतेन प्रतनोषि सहस्रेण विरोहसि तस्या ते देवेष्टके विदे महाविशाभयम् अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा शिरसा धारयिष्यामि रक्षस्व माम् पदे पदे स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ